आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधि झाः। अथ वार्ताः। अद्य राजधान्यां मालेनगरे मालदीव्स देशस्य स्वातन्त्र्यदिवसोत्सवे प्रधानमन्त्री गेस्ट ऑफ ऑनर इति सम्माननीय अतिथित्वेन भविष्यति। राष्ट्रपतिः मोहम्मद मुइजू इत्यस्य विशेष आमन्त्रणेन प्रधानमन्त्री मालदीव्स देशस्य राज्य यात्रायाम् अस्ति। प्रधानमन्त्रिणा नरेन्द्र मोदिना द्विराष्ट्र यात्रायाः द्वितीय चरणे मालदीव्स देशं गत्वा मालदीव्स देशस्य राष्ट्रपतिना डॉक्टर मोहम्मद मुइजू इत्यनेन सह मिलित्वा बहुविध क्षेत्रेषु सहयोगं वर्धयितुं षट् सहमति पत्राणि हस्ताक्षरितानि। इयं प्रधानमन्त्रिणः तृतीया यात्रा अस्ति तथा च डॉक्टर मोहम्मद मुइजू वर्यस्य आध्यक्ष्ये इयं प्रथमा यात्रा। मालदीव देशस्य राष्ट्रपतिः डॉक्टर मोहम्मद मुइजू इत्येषः विमानस्थानके प्रधानमन्त्रिणः विशिष्टेन भावेन स्वागतं कृतवान्। प्रधानमन्त्री अवोचत् यत् राष्ट्रपतेः एतेन भावेन सह गभीरतया स्पृष्टो अस्ति। सः अवोचत् यत् भारत मालदीव्स मैत्री आगामिकालेन प्रगत्या नूतनानि औन्नत्यानि साधयिष्यन्ति इति। आकाशवाण्या सह संवादे मालदीव देशे भारतस्य उच्चायुक्तः जी बालसुब्रह्मण्यम् अवोचत् यत् गतवर्षे राष्ट्रपतेः मुइजू इत्यस्य भारत यात्रायाः समये मालदीव देशे रुपे कार्ड उद्घाटितम् आसीत् इति। सः सूचितवान् यत् मालदीव देशे UPI इत्यस्य संचालन विषयेपि उभौ पक्षौ गभीरं वार्तालापं कुर्वन्तौ स्तः।
मालदीव के रक्षा क्षमताओं के विकास में भारत निरंतर सहयोग देता रहेगा। हिंद महासागर क्षेत्र में शांति, स्थिरता और समृद्धि हमारा साझा लक्ष्य है।
प्रधानमंत्री नरेंद्र मोदी अद्यारभ्य तमिलनाडोः द्विदिवसीय यात्रायाम् अस्ति। UK मालदीव्स इत्येतयोः यात्रां समाप्य श्रीमोदी साक्षात् तुटिकोरिन नगरं गमिष्यति। प्रधानमन्त्री अद्य रात्रौ तुटिकोरिन नगरे 4,800 कोटि रूप्यकाणां विविध विकास परियोजनानां उद्घाटनं, समर्पणं, शिलान्यासं च विधास्यति। एते प्रकल्पाः क्षेत्रीय सम्पर्कं महत्वपूर्ण रूपेण वर्धयन्ति। केन्द्रीय गृहमन्त्री अमित शाहः देशस्य विधि प्रवर्तन अभिकरणान्, भयोत्पादक कार्येषु, अवैध कार्येषु च संलग्नान् पलायितान् पुनः आनेतुं समर्पित उपायान् कर्तुं निर्देशितवान्। श्रीशाहः ह्यः नवदिल्ल्यां द्विवार्षिक राष्ट्रिय सुरक्षा रणनीति सम्मेलनस्य उद्घाटनानन्तरं भाषणं कुर्वन् आसीत्। 1999 कारगिल युद्धकाले स्वप्राणस्य बलिदानं कृतानां भारतीय सैनिकानां शौर्यं सम्माननार्थं अद्य कृत्स्नेहि देशे कारगिल विजय दिवसः आचर्यते। अस्मिन् कार्यकाले भारतीय सशस्त्र सेनाः जम्मू कश्मीर प्रदेशयोः कारगिल मण्डलस्य प्रदेशान् पुनः गृहीतवन्तः। बिहारे विशेष गहन संशोधने इत्यादि विविध विषयान् अधिकृत्य विपक्षस्य निरन्तरं विरोध कारणात् लोकसभायाः, राज्यसभायाः च गतदिनस्य कार्याचरणं स्थगितम्। लोकसभायां कारगिल विजय दिवसस्य पूर्व संध्यायां कारगिल वीरेभ्यः श्रद्धांजलि समर्पणानन्तरं विपक्षस्य सदस्याः सदन कार्यजातं बाधितवन्तः। इमे नेतारः प्रमुखेषु विषयेषु चर्चां याचितवन्तः। अध्यक्षः ओम बिरला वर्यः तान् शिष्टाचारं धारयितुं प्रार्थयत्, परन्तु विरोधः अन्ववर्तत। प्रथमतया अपराह्णे 2 वादनपर्यन्तं कार्यजातं स्थगितं, ततश्च दिनपर्यन्तम् एव कार्यजातं स्थगितम् इति वार्ताः।